दूतम् भो विश्ववेदसम् हव्यवाहममर्त्यम् यजिष्ठमृञ्जसे गिरा स हि वेदावसूधितिम् महाङ्गारोधनम् दिवः देवाङ्गेहवक्षति स वेददेव आनमम् देवाङ्गृतायते तमे दातिप्रियाणि चिद्वसु सहो दासे दूत्यम् चिकित्वा अन्तरीयते विद्वान् आरोधनम् दिवः येस्या भजे अग्नये ददासुर्हव्यदातिभिः यैमुष्यम् तयिन्धते ते राजते सुवीर्यैः स सवाम् सोऽभिसृण्विरे ये अग्नदधिरे दुवाः अस्मे राजो दिवे दिवे सञ्चरन्तु पुरस्पृहाः अस्मे वाजा सगीरताम् सविप्रश्चर्षणीनाम् समसामानुषाणाम् अधिक्षिप्रेव विद्यति